इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। जम्मू कश्मीरे उपराज्यपालः मनोज सिन्हा अथ सेनामुख्यः उपेन्द्र द्विवेदी च समग्र सुरक्षा स्थितेः विषये चर्चाम् कृतवन्तौ। केन्द्रेण सर्वोच्च न्यायालये वक्फ अधिनियम संशोधनं रक्षयता उक्तं यत् नूतना विधिः सम्प्रति सम्पत्ति प्रबन्धनम् आधुनिकीकरोति। उत्तर कश्मीरस्य बन्दीपोरा मण्डले अद्य प्रातः एकः आतंकवादी सहचरः मारितः। विश्वनेतारः पहलगाम आतंकवाद्याक्रमणस्य निन्दां कृतवन्तः। अपि च ऋतुविज्ञान विभागेन अनुमानितं यत् उत्तर भारते तीव्रतापतरंगाः प्रवहन्ति अथ पूर्वोत्तर भारते अतिवृष्टिः जायते। अथ वार्ताः विस्तरेण। पहलगाम आतंकी आक्रमणस्य पश्चात् सुरक्षास्थितेः समीक्षां कर्तुं सेनाप्रमुखः जनरल उपेन्द्र द्विवेदी अद्य श्रीनगरं प्राप्तः। श्रीनगरे स्थितस्य चिनारकोर इत्यस्य जनरल आफिसर कमाण्डिंग इति सैन्याधिकारिणा आतंकवादिनः विरुद्धं क्रियमाणानाम् अभियानानां समग्र सुरक्षास्थितेः च विषये पाकिस्तान सेनायाः नियन्त्रणरेखायाः सीमायां युद्धविरामस्य उल्लंघनस्य प्रयासस्य च विषये सेनाप्रमुखम् अवगमनं कारितम्। जनरल द्विवेदी उपराज्यपालेन मनोज सिन्हा इत्यनेन सह मिलित्वा आक्रमणानन्तरं समग्र सुरक्षास्थितेः विषये चर्चां कृतवान्। सेनाप्रमुखेन दक्षिण कश्मीरस्य अनन्तनागमण्डलस्य बैसरन वनग्रामे पहलगाम आक्रमणस्थलस्य भ्रमणस्य सम्भावना वर्तते। एतन्मध्ये अस्माकं संवाददाता अवदत् यत् उत्तर कश्मीरस्य कुपवाड़ा मण्डले नियन्त्रणरेखायाः अनेकस्थानेभ्यः पाकिस्तान सेनायाः युद्धविरामस्य उल्लंघनस्य सूचनाः सन्ति। केन्द्रेण अद्य सर्वोच्च न्यायालये उक्तं यत् सर्वकारीय निजभूमिषु अतिक्रमणं कृत्वा दुरुपयोगं निवारयितुं वह मण्डलस्य परिचालनेषु पारदर्शितां सुनिश्चेतुं च पञ्चनवत्यधिक ऊनविंशतितमे वर्षे वह अधिनियमे संशोधनम् अभवत्। अल्पसंख्यक कार्याणां मन्त्रालयेन एकस्मिन् प्रतिवेदने त्रयोदशोत्तर द्विसहस्रतमे वर्षे संशोधनात् परं वह क्षेत्रे षोडशोत्तरैकशतप्रतिशतं वृद्धि अभवत् इति उद्धृत्य उक्तं यत् अनेकानि वह मण्डलानि गुप्तरूपेण कार्यं कुर्वन्ति येन ते समग्र सम्पत्त्याः अभिलेखानाम् उपारोपणे असफलाः भवन्ति। केन्द्रेण उक्तं यत् पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य वह संशोधन अधिनियमस्य उद्देश्यं धार्मिकप्रथाः प्रभाविकरणं विना सम्पत्तिप्रबन्धनम् आधुनिकीकरणम् अस्ति। जम्मूकश्मीरे उत्तरकश्मीरस्य बन्दीपोरा मण्डलस्य बाजीपोरा कुलनारक्षेत्रे अद्य आतंकवादी विरोध्यभियाने एकः आतंकवादी सहचरः मारितः। हतः आतंकवादी सहचरः लश्कर ए तैबा इति आतंकवादी संघटनस्य सदस्यः अल्ताफ लल्ली इति परिचितः। उत्तर कश्मीरस्य बन्दीपोरा मण्डले गोलिका प्रहारस्य भयंकर आदान प्रदानस्य अनन्तरं वनक्षेत्रे भारतीय सैन्य जम्मू कश्मीर आरक्षक संयुक्त बलयोः आतंकवादी विरोधी अन्वेषण अभियानं निरन्तरं प्रचलति। ब्रिटिश प्रधानमंत्री कीर स्टार्मरः अथ डच प्रधानमंत्री डिक शूफः अद्य पहलगाम आतंकवाद्याक्रमणस्य निन्दां कृतवन्तौ। श्री स्टार्मरः दूरभाषामाध्यमेन प्रधानमन्त्रिणं श्रीमोदिनं सम्पर्कं कृत्वा निर्दोषनागरिकाणां हत्यायां दुःखसंवेदनां प्राकटयत्। अन्यत्र श्रीशूफ इत्यनेनापि उपर्युक्तविषयं प्रति संवेदनाः प्रकटिताः। प्रधानमन्त्री श्रीमोदी द्वाभ्यामपि आभारभारं प्रकटयन् उक्तवान् यत् अग्रेपि आतंकवादस्य विरुद्धं कार्याचरणे तयोः समर्थनम् अपेक्षते। प्रधानमन्त्री श्रीनरेन्द्रमोदी भारतस्य वैज्ञानिक शैक्षिक यात्रायाः परमपुरुषस्य डॉ के कस्तूरीरंगनवर्यस्य निधनविषये श्रद्धाञ्जलिं प्रकटितवान्। सामाजिक संजालीय माध्यमेन श्रीमोदी अवदत् यत् तस्य दूरदर्शी नेतृत्वं राष्ट्राय निस्वार्थ योगदानं च सर्वदा स्मर्यते। प्रधानमन्त्रिणा प्रकाशितं यत् डॉ कस्तूरीरंगनः भारतस्य अन्तरिक्षकार्यक्रमं नूतनोन्नतस्थानं प्रेषयन् अतीव परिश्रमेण इसरो इत्यस्य सेवां कृतवान्। श्रीमोदी अवदत् यत् तस्य नेतृत्वं महत्वाकांक्षायुतानां उपग्रह प्रक्षेपणानां साक्षी इपि अभवत्। प्रधानमन्त्रिणा मोदिना उक्तं यत् राष्ट्रिय शिक्षानीतेः प्रारूपणकाले भारते शिक्षणम् अधिकं समग्रम् अग्रे दृष्टिशीलञ्च भवतु इति सुनिश्चित्य डॉ कस्तूरीरंगनेन कृतप्रयत्नस्य कृते भारतं सदैव कृतज्ञः भविष्यति। मोदी अवदत् यत् सः अनेकेषां युवानां वैज्ञानिकानां शोधकर्तॄणाञ्च उत्कृष्टः मार्गदर्शकः अपि आसीत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। फ्रांस देशस्य राष्ट्रपतिः इमानुएल मैक्रों जम्मू कश्मीरस्य पहलगामे संजातस्य आतंकी आक्रमणस्य विषयं ज्ञात्वा उक्तवान् यत् फ्रांस देशः भारतेन सह अथ भारतीयैः सह दृढतया स्थितः वर्तते। ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दूरभाषामाध्यमेन सम्भाषयन् राष्ट्रपतिः मैक्रों आतंकी आक्रमणस्य कठोरनिन्दां कृतवान् अथ गहनसंवेदनामपि प्राकटयत्। अग्रेपि सः इदमुक्तवान् यत् फ्रांस देशः तस्य सहवर्तिभिः सह यत्र क्वापि अपेक्षा वर्तते तत्र आतंकवादस्य विरुद्धं युद्धाय सन्नद्धो वर्तते। अवधेयमस्ति यत् सम्पूर्णं विश्वं पहलगाम आतंकी आक्रमणस्य निन्दाम् अकरोत्। राष्ट्रिय मानवाधिकार आयोगेन जम्मू कश्मीरस्य पहलगामे आतंकवादिभिः निर्दोष नागरिकाणां हत्यायाः हत्यायां कठोरनिन्दां कृता। एकस्मिन् वक्तव्ये आयोगेन उक्तं यत् आतंकवादे प्रत्यक्षेण परोक्षेण वा संलिप्तानां आततायिनां विरुद्धं कठोरदण्डदानस्य समयः अधुना आगतोऽस्ति अथ च ते आततायिनः एव अस्य मानवतायाः विरुद्धं कृतापराधस्य उत्तरदायिनः सन्ति। पहलगामे आतंकवादी आक्रमणं विरुध्य अद्य राष्ट्रिय राजधानी देहल्याः अनेकाः विपण्यः पिहिताः आसन्। जनाः आतंक्याक्रमणे मृतेभ्यः श्रद्धाञ्जलिं प्रदातुं चान्दनीचौकतः रेडफोर्ट इति रक्तदुर्गपर्यन्तं पथप्रदर्शनं कुर्वन्तः दृष्टाः। अखिलभारतीयव्यापारिपरिसंघस्य महासचिवः अथ दिल्लीभाजपासंसदः प्रवीणखण्डेलवालः उक्तवान् यत् देहल्यां नवशताधिकानि आपणानि सम्पूर्णरूपेण पिहितानि वर्तन्ते।
दिल्ली के व्यापारी 25 अप्रैल को दिल्ली में अपना कारोबार बंद रखेंगे और बंद रख करके अपनी सहानुभूति उन सब परिवारों के प्रति प्रकट करेंगे जिनके परिवार को क्षति पहुंची है। वहीं दूसरी ओर प्रधानमंत्री नरेंद्र मोदी के समर्थन में भी व्यापारी खड़े होंगे। ये फैसला दिल्ली के व्यापारिक संगठनों ने लिया है।
केन्द्रीयमन्त्रिणा ज्योतिरादित्य सिन्धिया इत्यनेन पहलगाम आतंक्याक्रमणस्य निन्दां कुर्वता उक्तं यत् अमानवीयतत्वैः देशस्य आत्मनि प्रहारं कर्तुं प्रयत्नः कृतः परञ्च भारतं इतोऽपि द्रुततरं उच्चतरञ्च उत्तिष्ठति। नवदिल्ल्याम् एकस्मिन् कार्यक्रमे प्रवदन्मन्त्री उक्तवान् यत् भारतस्य जनाः प्रत्येकस्मिन् राज्ये प्रत्येकस्याम् आस्थायञ्च एकस्वरेण एकत्रिताः सन्ति। ऋतुविज्ञानविभागेन पंजाब हरियाणा दिल्ली उत्तरप्रदेश राजस्थान मध्यप्रदेशेषु आगामिषु चतुर्दिनेषु उष्णतापतरंगस्य स्थितेः पूर्वानुमानं कृतं वर्तते। अरुणाचलप्रदेश असम मेघालय नागालैंड मिजोरम त्रिपुरा राज्येषु प्रचण्डवृष्टेः संभावना वर्तते। आईपीएल इत्येतस्यां विंशति प्रतिविंशति क्रिकेट मालिकायां चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे अद्य चेन्नई सुपर किंग्स सनराइजर्स हैदराबाद दलयोर्मध्ये द्वन्द्वं क्रीडिष्यते। द्वन्द्वं सायं सार्ध सप्तवादने आरप्स्यते। गतरात्रौ बेंगलुरुनगरस्य एम चिन्नस्वामी क्रीडांगणे क्रीडिते द्वन्द्वे रॉयल चैलेंजर्स बेंगलुरु दलेन राजस्थान रॉयल्स दलं एकादश धावनांकैः पराभूतम् इति वार्ताः।